नमस्सर्वेभ्यः। अद्य तिङन्तप्रक्रियायाः त्रयोविंशः पाठः, जनवरी मासस्य एकादशः दिनाङ्कः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अभ्यासात् पूर्वं किञ्चित् पुनरावर्तनं कुर्मः। भादिगणः, भादिगणस्य प्रक्रियायां स्मः। भादिगणस्य विकरणः शप्, औत्सर्गिकतया कर्तरि शप् इत्यनेन कर्तर्थे सार्वधातुके परे धातुभ्यः शप् विहितः, सर्वेभ्यः धातुभ्यः शबेव विहितः। तदपवादत्वेन, शपः अपवादत्वेन दिवादिभ्यश्यन् स्वादिभ्यश्नुः इत्यादि तत्तद्गणविशिष्टविकरणप्रत्ययाः विधीयन्ते। यत्र विशिष्य कोऽपि विकरणः न विहितः तत्र शबेव भवति इति नियमः। भादिगणस्य विशिष्य किमपि न विहितम्, अतः शप् विकरणः। शपि परे सामान्यमङ्गकार्यमस्ति गुणः। इगन्तानाम् अङ्गानां सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति। ह्रस्व अथवा लघु इगुपधानाम् अङ्गानां पुगन्तलघुपधस्य च इत्यनेन गुणः भवति। एतदेव सामान्यम् अङ्गकार्यम्। एतदतिरिच्य ये धातव यानि अथवा ये धातवः यथा अदुपधाः अथवा गुरु वर्णः उपधायामस्ति तादृशाः वर्णाः, तेषां किमपि न भवति, अङ्गकार्यं किमपि न भवति इति सामान्यः नियमः। किन्तु तत्र केषाञ्चन धातूनां विशिष्टानि कार्याणि विहितानि सन्ति। भादिगणे सहस्राधिकाः धातवः सन्ति, तत्र षट्चत्वारिंशत् धातवः विशिष्टाः सन्ति, येषां किञ्चित् विशिष्टं कार्यं भवति। एतच्च विशिष्टं कार्यं त्रिधा भवितुमर्हति। प्रथमः अस्ति धात्वादेशः लोपः आगमः। धातोः, पूर्णस्य धातोः अथवा अवयवस्य स्थाने कश्चन आदेशः स्यात्, अथवा धात्ववयवस्य लोपः स्यात् अथवा आगमः स्यात्। द्वितीयमस्ति विशिष्टः विकरणप्रत्ययः। यथा दृष्टवन्तः, सामान्यतया शब् विकरणः विहितः, किन्तु क्वचित् भादिगणे पठितानां धातूनाम् अन्यः कश्चन विकरणः भवितुमर्हति। तद्विधायकानि सूत्राणि ज्ञातव्यानि। तृतीयमस्ति स्वार्थे विशिष्टाः प्रत्ययाः। केषाञ्चन धातूनां स्वार्थे केचन प्रत्ययाः नित्यं भवन्ति। ते के प्रत्ययाः, प्रत्यये कृते कथं रूपम् इत्यादि ज्ञातव्यं भवति। वयं तु इदानीं प्रथमं कार्यं दृष्टवन्तः, धात्वादेशः आगमः लोपः इति सर्वमपि अधीतम्। तत्र धात्वादेशे पाघ्राध्मास्थां नादाण् दृश्यर्ति सर्ति सदशदां पिबजिघ्रधमतिष्ठमनयच्छ पश्यच्छ धौशीयसीदाः। एकादश धातवः सन्ति, पा घ्रा ध्मा स्था म्ना दाण् दृशि, दृशिर्प्रेक्षणे अर्ति, ऋ धातुः, सर्ति सृ धातुः, सद षदाम् सद् षड्ल सथा तथा षड्ल इत्येते धातवः। एतेषां धातूनां पिबादयः आदेशाः साक्षाद् विधीयन्ते शिति प्रत्यये। So it replaces the entire dhatu. Pa is replaced by pibu, so we get pibati. Ghra is replaced by jigru, so we get jigrati, and so on. Tataha, ishu gami yamam chaha. Etesham trayanam dhatu naam chakara deshaha vithiyate. Alontyasya etyanena antyasya bhavati. Ishu dhatuhu taudadikaha. Bhadiganetu गम यम, गमल गतौ यम उपरमे इति धातुद्वयम्, तयोः अन्तिमवर्णस्य मकारस्य स्थाने चकारादेशः गच्छ यच्छ इति भवति. चकारे कृते छेच इत्यनेन तुगागमः, तस्य श्चुत्वेन चकारः, गच्छति यच्छति इति रूपं सिद्ध्यति. ततः स्थिवु क्लमुचमां शिति इति सूत्रमस्ति. स्थिवु इति भवेत् तत्र दोषः, टङ्कनदोषः. स्थिवु क्लमुचमां, स्थिवु धातुः, क्लमुधातुः, चमुधातुः, चमधातुः, एतेषां शितिप्रत्यये परे दीर्घः विधीयते. अचश्च इत्यनेन अचः दीर्घः. तत्र क्लमु धातुः दैवादिकः, दिवादिगणे भवति. अतः ष्ठिवु चमु इति धातुद्वयं वादिगणे. ष्ठिव इत्यस्य ष्ठीवति इति रूपम्. चमु इत्यत्र वार्तिकमस्ति, आङि चम इति वक्तव्यम्. आङि उपसर्गे एव चमः दीर्घः. अतः आ चम इति स्थिते दीर्घे कृते आचामति इति रूपम्. केवलस्य धातोः तु किमपि न भवति. चम अ चम इत्येव, चमति चमतः चमन्ति इत्येव रूपाणि. आङि उपसर्गे अनेन सूत्रेण दीर्घः विधीयते. क्रमः परस्मैपदेषु इति अग्रिमं सूत्रमस्ति. क्रमु पादविक्षेपे इति धातुः, तस्य धातोः परस्मैपदपरे शिति, शित् प्रत्ययः भवेत्, ततः परस्मैपदप्रत्ययः भवेत्, तादृशस्थले दीर्घः. पुनः दीर्घः इत्येन वर्तते क्रम इत्यस्य दीर्घः. क्रम अति इति स्थिते क्रामति इति रूपं भवति. क्रमधातुः मूलतः परस्मैपदी, किन्तु क्वचित् आत्मनेपदित्वं विधीयते. आत्मनेपदप्रत्ययेषु सत्सु दीर्घः न भवति, परस्मैपदप्रत्ययेषु एव दीर्घः. ऊदुपधायाः गोहः, गुः संवरणे इति धातुः, तस्य उपधायाः, उपधायाम् उकारः अस्ति, तस्य स्थाने ऊकारः आदेशः विधीयते. अचि अजादौ प्रत्यये परे, शप्रत्ययस्तु अजादिः, अ इति सर्वदा अजादित्वं हलादित्वम् इत्यादि अनुबन्धविनिर्मुक्तस्यैव परिगणनम्. Always that is the rule. If you are looking at whether something is ajadi or haladi or whatever, always it is after removing the anubandha. It is not with anubandha. Ataha a iti pratyaya shap ajadihi. Ataha tasmin pare upadha dirghaha guhati iti rupam. Kruporolaha ityanena krup dhatohu रेफस्य स्थाने लकारः विधीयते. यथा कृप अ इत्यस्ति, अयं लघुपदः, पुगन्तलघुपदस्य च इत्यनेन गुणे कृते कृप अ, पुरण्डपरः इत्यनेन रपरत्वं कर्प इति भवति. तत्र कृपोरोलः इत्यनेन लत्वे कल्पते इति रूपम्. केवलस्य धातोः अपि यत्र गुणः नास्ति, ऋकार एव श्रूयते, तत्रापि अनेन सूत्रेण लिकारः विधीयते. यथा कृपुत निष्ठा, क्तप्रत्यये गुणनिषेधः अस्ति, गुणो न भवति. कृपुत इति स्थिते अनेन लिकारादेशे क्लुप्त इति रूपमपि अनेन सूत्रेणैव सिद्ध्यति. ततः षस्ज् इति धातुः अस्ति, धात्वादेशसः इत्यनेन सत्त्वे कृते सस् ज्. तत्र सकारस्य स्तोश्चुनाश्चुः इत्यनेन श्चुत्वं, सश् ज्. ततः झलां झश्चि इत्यनेन झष्ट्वे सज्ज् इति भवति. अतः सज्ज इति अङ्गम्, सज्ज असज्ज. एतत्तु शपं निमित्तीकृते कृतं कार्यं न. इट् इस् जस्ट् अ सन्धिकार्य विच् हेपन्स् बिकास् आफ् द लेटर्स् इन् द धातु इट्सेल्फ्. सो एतानि कार्याणि विशिष्टानि आदेशरूपेण भवन्ति. ततः लोपः, उपधायाः नकारस्य लोपः विहितः सूत्रद्वयेन, दंशसञ्जस्वञ्जां शपि इति, रञ्जेश्च इति च. शपि परे एतेषां धातूनां उपधायां यः नकारः तस्य लोपो भवति। दंश इत्यत्र दश इति भवति, संज इत्यत्र सज इति, स्वंज इत्यत्र स्वज, रंज इत्यत्र रज, रजति रजते, दशति इत्यादीनि रूपाणि सिद्ध्यन्ति। ततः आगमः, आगमविधायकम् एकमेव सूत्रमस्ति, रधिजभो रचि। इत्यनेन रधधातोः जपधातोश्च नुमागमः विहितः। तत्र रधधातुः भौवादिकः न, जभ जभी गात्रविनामे इति धातुः एव भ्वादिगणे अस्ति। तस्य नुमागमे जन भ, नष्टापदान्तस्य झलि इत्यनुस्वारः, अनुस्वारस्य परसवर्णः जम्भ, जम्भते इति रूपं सिद्ध्यति। So these are the sutras to remember when we are looking at the Bhadigana. Okay. So it's always useful to have the Dhatu Patha of her, as in the Pushpa Dikshit Dhatu Patha in hand. So that the moment you look at it and see that it is a Vikari Dhatu, you can come to this section. Even if you don't remember all the sutras initially, at least it should tag a red flag. As soon as you see that label, that it is a Vikari Dhatu, you should know that there is something special, so you come over and at least check this section to see what is it that is special. So now, the exercise. So, mainly focusing on the Angakarya. Okay. So, what is the Angakarya? So, it is good whenever I give these exercises, if you have the time and this, please work it out from the beginning, as in all the steps, and arrive at the forms. Okay. So I will tell you that Tingantha Prakriya is more than 50% your work. The more you work it out, the stronger you will be in Prakriya. Okay. It is always, it's like mathematics. It's, you have to work it out and only then you will be very familiar with the sutras and very conversant with the forms. So, even though I might not ask for the full Prakriya, as in this exercise I said only the Angakarya, but still you can work out the whole Prakriya and get the forms. So, you see the Dhatu and you get the forms immediately. That is the objective of any exercise that I give. So, whatever you have learned so far, you have to keep applying again and again till it comes naturally. So, now we will start. Any volunteers? Ravichandranji?
Can you hear me?
Yes.
Okay. Pung, Parame, Atmane Pade, Halantyam, so okay, Pu. And Pu with a Kartarisha. So Sarvadhatakarada Dityo, so you get O plus R. Then you have Pava plus R. Then you become Ketayavata, you get Pava plus R. Pabu plus R.
Right. So Pu so the Angakarya Matra Sarvadhatuka Ardhadhatukayo Ityanena Gunaha, because it is an Igantha. Okay, next.
Gamru Gatau. So Ichangya, so you get Gam plus A. So then you have that Ichu Chami Amam Chaha. So Ma gets replaced by Cha. Then Checha you get Tukagama. So you get cha, Ga It plus Cha. Which with the Chitwam you get Gacha plus Kartarisha of R is there. So Gacha plus R. Then you get Gachati, Gachati, Gachati.
So Gam Dhatoho, Ishugami Yamam Chaha Itanena, Makara Sisthane, Chakara Deshaha, Chakare Krate, Tukagamaha. So you get Gacha. Next.
She Shaye, which is Parasme Pade, this is straightforward. She plus A, then Guna with Savadatta or with Guna. So you get She, then it becomes Shaya, plus Shaya plus A, then becomes Shayati, Shayataha, Shayantaha.
Shayanti, yeah. So it is Chi, Punaha Igantam, इदं तत्वात् सार्वधातुकार्धधातुकयोः इत्यनेन गुणः अयादेशः एचोयवायवः क्षय इति अङ्गम्। थैंक यू। शर्मा महोदय, can you hear? Noise. Can you hear? श्रूयते वा? We cannot hear you. If you're
उपदेशाजनांशस्य लोपः षष्ज्य
धात्वादेः
सः सः षष्ज्य लकारः तिप्तस्जि अनुदात्त विन आत्मनेपदम् षष्ज्य ता कर्तरिषभ षष्ज्य आता इति आत्मना आत्मनेपदान् तेरे षष्ज्य आते स्तोश्चुनाश्चुः षष्ज्य आते सज्ज आते सज्जते जलां गच्छति।
अङ्गकार्यम् अङ्गकार्यं नास्ति, सन्धिकार्यं सकारस्य श्चुत्वं जष्टुं सज्ज इति अङ्गम्। अग्रिमम्
भ्रूमि भरणे हलन्त्यं भ्रु लकार वर्तमाने लट् पित्तज्जि स्मरितैतः कर्तृभिप्राये क्रियाफले भ्रूता कर्तरिषप् भ्रू आता सार्वधातुकार्धधातुकयोः उरण्परः भर् आता इति आत्मनापदानां तेरे भर् आते भरते
भरति भरते उभयं साधु। सो भृ धातोः शपि सार्वधातुकार्धधातुकयोः इत्यनेन गुणः रपरः उरण्परः इत्यनेन रपरः भर इति अङ्गम्। अग्रिमम्
क्रमु पदविक्षेपे
पादविक्षेपे
अजननास्ति तस्य लोपः क्रम लकारः क्रम ति कर्तरिषप् क्रम आति क्रमः परस्मैपदेषु क्रम आति परस्मैपदेषु क्रामति आकारादेशः क्रामति।
अस्तु, सो क्रम धातोः क्रमः परस्मैपदेषु इत्यनेन दीर्घः क्रामति। षष्ठधातुः आत्मनेपदी वा परस्मैपदी किल? सज्जते इति सज्जति इति स्यात्, यतोहि अयम् अनुदात्तः नास्ति अकारः षष्ठगतौ। षष्ठधातु इस् इट्
सिद्धान्तकौमुदी
स्वरिता देन् I thought my dhatu patha says it is udatta. I check. Okay. Sajjati
and sajjate both as per the Siddhanta.
Pushpa Dikshit gives only sajjati. The dhatu patha I'll check it out. Okay. Thank you. Dhanyavada Sharma Mohanay. Anybody else? Nitish Chandra. Yes, but there is a lot of background noise. So, you are traveling? Or?
No.
This Sorry? Yeah, I mean, I cannot, like, make out what you are saying clearly. There is a lot of noise. So it's something in your background, is it? Okay. So you can tell it's okay. I mean, if you speak a bit louder, maybe.
Okay.
D धातोः इगन्तत्वात् सर्वधातुकार्धधातुकयोः इत्यनेन गुणः अयादेशः. ओके, नेक्स्ट. पाघ्राद्मा इत्यनेन धातोः साक्षादादेशः. षदसदां शीयसीदाः, धौ शीयसीदाः, सद धातोः सीद आदेशः, सीदति. नेक्स्ट्. उपधायां च इति दीर्घः. अङ्गकार्यं किमपि नास्ति. उपधायां च इत्यनेन उपधायाः दीर्घः. ओके, सो इट् बिकम्स् खूर्द. धन्यवादः. हरिनारायणन्.
फ्रेंड्स राधे. सकारस्य अनन्तरं अनन्तरम् अनुस्वारः अपि गच्छति. सूत्रमेव अहं पश्यन्नस्मि.
तत्र अत्र दीयते किन्तु वस्तुतः तत्र नकार एव अस्ति. रन् जि
मम सङ्कटनं कार्यं फोन् द्वारा आगतवान् अस्मि, अतः
चिन्ता नास्ति. रञ्जेश्च इत्यनेन हरि ओम्. देयर इज सम ब्रेक. ऐ कुड नॉट हियर यू प्रॉपरली. हरि ओम्. न श्रूयते महोदय.
अहं फोन् द्वारा आगतवान् अस्मि. सङ्गणकं कार्यं न करोति, नोट्स् द्रष्टुं चिन्ता
नास्ति. चिन्ता नास्ति. हिमांशु महोदय.
रञ्ज रागे उभयपदी. रञ्ज उपदेशे अज नुनासिकी तस्य लोपः. कर्तरि शप् रञ्जे च रज अ रज रजते रजति.
रञ्जेश्च इत्यनेन नकारस्य लोपः शपि.
स्फुट विकसने आत्मनेपदी स्फुट उपदेशे जनुनासिक इक तस्य लोपः. स्फुट प्लस शप् स्फुट प्लस तिक् तस् जीति दत्ते देन शप् कर्तरि शप् देन अ बाय लशक्व तद्धिते हलन्त्यं तस्य लोपः. देन तुकं त लघुपदस्य च स्फोट स्फोटते.
शपि परे लघुपदत्वात् पुगन्त लघुपदस्य च इत्यनेन गुणः उकारस्य ओकारः. अग्रिमम्.
Guhu samvarane. This is swarit, that's why ubhayapadi. Guha ubhadeshe janunasikit tasya lopaha. Kartarish, then the tik plus g and all that, then guhu plus shap plus p. Then guhu a. So lashakotadite and all that, and then ut upadhayaha guha. So guha plus a, so that is guhate guhati.
Right. So udupadhaya guha itanena dirghaha. Dhanyavadaha. Paul?
Me? Okay. You can hear me now?
Yes.
Okay. Chung. Okay. Chung Gatao. So it's, yes. Anubandha Lopaha. Chu plus Shap. Chu plus A. With the Sarvadatta Gardadataka Yoho. You got Cho A. And then we have Echo Yavayavaha. So we get
Next.
Bridging. Okay, Bhrji, Bharjane, so we have Anubandha Lopaha, Upadeshi Anujasika It, so we have Bhrj, and we have Puganta, which makes it Bhoj, so we get Bhojati.
Bharjati, yes. So there is Puganta Laghupadha Sita with Uranra Paraha to get Harje.
What am I thinking? Of course. Sorry, yeah. Okay, it's Bharjati.
Bharjati.
Sorry. Yeah. And then we have, next is Kripo. Yeah, Bharjati. Bharjati. We have Kripo. Samarche. And so we have, we get Anubandha Lopaha, and then we have Krip, and then we have Puganta again, and we get Karp. So we get Karp, Karp, plus A, and then we get Kalp plus A. So we get Kalpati. We have Kripaha, Raha, Laha as the sutra.
Ha. So Kriporo Laha, Repha Sisthane Lata Raha, Kalpate. Dhanyavada. Mahadevan? అంగకార్యం కిమపి నాస్తి ఈర్ష్య ధాతుః ఉపధాయాం యద్యపి ఈకారః అస్తి సః లఘుః న అతః గుణః న భవతి ఈర్ష్యతి ఇత్యేవ రూపం అగ్రిమం
Shaha Sahai Sneha Sha.
Shapi pare eva dhatva desha. To remember, I mean, that the nimitta for it is shit. Ataha shapi krate padhadma ittanena adeshe tishth a tishth. Agrimam.
Rai. Shabdeh. Shapi ittanena rai a.
अङ्गकार्यं नास्ति एचोयवायावः इत्यनेन आयादेशः रै अ बिकम्स् राय. धन्यवादः. So there is no angakarya in rai, just the sandhi to make it rai. Okay. Vasu. I think you have muted yourself. You have to unmute it. We cannot hear you. Yeah.
Some of the assignments you have given to Anudasa, Udasa, and Martin, and the team. Some of them you have given the Swara as for Anudasa, Udasa. So, if the it has the Udasa, then it becomes the Atma Chetana.
Right.
Udasa, it is a Chetana Chetana, depending on it. Swarita, it is. It will also be
yes. Right. Yes.
With respect to routine,
yes, it is. It should be Atmanepadin. It is an Atmanepadin. No, no. He said it as Vadyati, but yeah, I didn't correct it because that was not the key point. Since it is Anudatte, it is an Atmanepadin. Yes.
Right.
It is.
Generally, Anudatta is marked. And how would we know whether it is?
It's here. There is 10 Ranja. Jaya Swarita. The horizontal, the vertical line above is Swarita. There is Buhu. 12. It is, yeah, maybe you should. I mean. That's the problem with the font, probably. There is that, especially if you have both the marks, the Anunasika mark and that. So it is a bit difficult to see, but it is there. Maybe if you...
If it is under the dhatu, that only serves to say whether it is Anita or K.
Yes.
Thanks for the question.
Yeah. Anybody else want to go with the remaining dhatus? Nanga karyam? Anybody who has not tried so far? Okay. I think some people did not hear what Vasuji said. So I was just clarifying about the swaras. If it is anudatta, if the dhatu is marked with an anudatta for the it letter, it will be atmanepadi. If the mark, swara marking on the letter which is not it, will tell whether it is anit or set. Okay. So that was his question and answer about it. That's it. Sudhakar Mahoraya.
Shru Gatav, did you complete that or?
Yes, yes, Shru Gatav.
So, should I continue or?
Yes, please.
Okay. Ragra dhva ityanena dhav. Sat. Get a dhava.
So,
dhavati.
Dhavati. It is the dhatvadesha by paghadma vegitayam gatav. When fastness or quickness is intended. So, in the absence of that sense, you also have another form for the dhatu. Sru a, there is sarva dhatuka ardha dhatukayoho and uranraparaha, it becomes sara. So, both dhavati and sarati are possible depending on the meaning intended. Okay, next.
Svancha parishvange. Svancha upadese ajanvasika ita tasya lopaha tena svancha. Damsa sanja sanja svanjam shapi itanena svaja dankar lopaha svaja tashap svajati.
Right. So, swajate, it's an atmanepadi. But the thing is, the nakara lopa happens only after we do shap. Because damsha sanja svanjam shapi. Shapi pare eva nalopaha vidhiyate. Nataha.
Kita trase upadese ajananasaka itu tasya lopaha itanena kita shapi pare puganta laghu padasya cha ityanena kheta khetate.
Khetate, right. So kheta ityasya puganta laghu padasya cha ityanena gunaha. Next. Oh yeah, dhanyavada. Anybody else? For the last three dhatus. Sadagopan Mahalaya. Yes.
Puganda lagu padasya cha iti shabhi pare.
No, no, no. Etat to shtivuk lamot. No, there is shtivuk lamu chamam shiti. So there is dirgha. Shtivuk
lamu chamam shiti iti dirgha bhavati. Sorry. So there is no guna.
There is no guna.
Steve. Steve plus Sapta. Stevati.
Stevati. Yes.
Yami Gatra Vinami.
Jabhi.
Jabhi. Jabhi Gatra Vinami. Jabhi Visheshita to Rabi Gero. Jabhi. Jabhi Jabho Achi. Numa. Numa Mogoti. Music on the art for a deity. Jan B.
Jan B.
Jan Jan B. Moss for a deity. Jam.
Nashtapadanda Sicily.
Nashtapadanda Sicily. iti yam and then anuswarasi yahi parana parasavarnaha iti
jam.
This is anugartayet iti atmitva.
Yes. Jambhate.
Tru becomes taru.
ధన్యవాద. సో ఎస్ వీ హవ్ డన్ ద అంగ కార్యం. దేర్ ఆర్ కపుల్ ఆఫ్ క్వశ్చన్స్ విచ్ ఐ స్కిప్డ్. సో దిస్ వన్ ఇస్ దర్ అన్ అనుదాత్త మార్క్ మిస్సింగ్ ఫర్ 21 ఖిట. ఇస్ ఇట్ అనుదాత్తేట్? ఐ ఎమ్ జస్ట్ అ సెకండ్. No, I mean, it is, as per the Pushpadikshit Dhatu Patha, it is, no, Parasmai Pari, it is Khetati. Kheta, Kheta, the Ekar is there. So, Khetati is the form. Okay, so before that, Sidati ityatra ato gune bhavativa iti prashnaha, dhaushiya sidaha ityanena. Seed iti adeshaha. Seed a. So it becomes seed. There is no atogune. It's only in piba. Piba adesha where there is a question. So piba adeshaha adantaha iti Bhattojiri Kshetasimatam. Tatra piba a. Shabahakare atogune ityanena pararupam bhavati. Anyatratu halantaha halantyaha adeshaha ityeva siddhantaha. So there was one more question. I take time in locating the dhatu in the dhatu patha. Is there a shortcut? It depends on which dhatu patha you're using. If you're using a physical a book, there is an index. So you have to go by the alphabetical index after doing the prakritika karya. The alphabetical index usually for the dhatu pathas is after. It depends. I mean, there are different versions. Some of them do it after the prakritikarya. Like they give everything with sakara, dhatva desha saha, applying dhatva desha saha. Some of them give it separately under shakara and sakara. So for those you have to see. Otherwise, it's relying on the alphabetical. If you're using the soft copy, you have to just hit a search. So I don't see any shortcut for that particular thing. Okay. So now, there are a few more questions. In case of Shtiva Shapu, so both Guna and Angakarya Sutra can apply. That is, we can have both Pugantala Bhupadhasyacha and Shtiva Klamuchamamshiti. So which are we applying? Shtiva Klamuchamamshiti is a apavada. So it's a badhaka because you would have had, if it is Shit, you would have mostly had Guna. So instead of Guna, you are having the Dirgha. So it is Apavada. So we have to apply that only. Guna is always a general thing. Any other thing is an Apavada to Guna. So the form is Shtivati. Okay. Okay. Jabhi or Jabhi. That is Jabhi. The Idit, the Numagama is not because of Iditonam Dhatoho, it is because of Radhi Jabhorachi. The Sutra specifically says that the Jabhadhatu gets Numagama in when followed by Ach. Okay. So there's one more question regarding Shtiva. Does Dhatvadesha Saha not apply? We saw this Shtivu, Subdhatu Shtivu Shvashkati Nam. Shatva pratishe, sattva pratishedhaha. So for subdhatu, shtivu and shvashk, there is no sattva by dhatva deshasaha. So there is a specific nishedha through the vartika. There's one more question. How does R become Arti in the Sutra? And Sr becomes Arti. As I said, the Dhatu Nirdesha, there are two pratyayas which are added to indicate a Dhatu. Ik Shtipau Dhatu Nirdeshe. So we can add Ik or Shtip. So Shtip is a pratyaya here which is added to indicate a Dhatu. Because of that, there is Guna. By Sarvadhatuka Adhadhatuka Yohu. So Rti becomes Arti. Similarly, Sruti becomes Sarti. So, Arti means R Dhatu and Sarti means Sr Dhatu. Any other questions? Astu. Agre Saramaha. Yatha Drishtam. Just going back. So, Vishishtani Karyani Yani Vidhiyante Tatra Tredha Karyani Bhavanti Dhatva Deshaha Lopaha Agamaha Iti Sarvamapi Adhitam Agrimam Asti Vishishtaha Vikarana Pratyaha Keshanchana Dhatunam Vadiganasya Keshanchana Dhatunam Vishishtaha Kashtana Vikaranaha Vidhiyate Tani Sutrani Ranim Adhiyante Tatra ekam sutramasti, va, bhrasha, bhlasha, bhramu, kramu, klamu, trasi, truti, lashaha. Sutram. So, ashtau dhatavaha nirdishtahatra. Bhrasha, bhlasha, bhramu, kramu, klamu, trasi, truti, lashaha. Iti. Shyan iti anvartate. Now, kartarishap, divadibhya shyan, va, bhrasha, bhlasha, etc. So, if you look at the Sutra Patha. So we have Kartari Shap here, followed by Divadi Bhishyan. As I said, Sarve Bhyaha. Vidanim Drishyateva, the screen. I think I had paused it. Huh. Okay. So, Kartarishap iti Utsargi Kataya Vikaranaha. Sarvebhyaha Dhatubhyaha Kartrathe Sarvadhatuke Shap Vidhiyate. Shapaha Apavadatvena Anyani Vikaranani Vidhiyante. Tatra Divadibhyashyan iti Shyan. Tataha Vabhashabhasha iti Sutram. Tataha Shyan iti Anuvartate. Kartari Sarvadhatuke ityapi Anuvartate. Shyan Kartari Sarvadhatuke iti anuvrattihi Dhatoho iti adhikaraha Pratyaha Paraha Adyudattaha ityapi adhikaraha asti Kaha Suttarthaha Ebhyaha Dhatubhyaha Bhrasha Bhrasha ityadibhyaha Dhatubhyaha Paraha Adyudattaha Shyan Pratyaha Vasyad. So Shyan Pratyaha Vikalpena Vidhiyate Kartrarthe Sarvadhatuke Pare. Okay. Yatha bhrash iti dhatu asti, tatra ti pratyayaha sarvadhatukaha, tasmin pare, vikalpena shyan vidhiyate. So if there is shyan iti, ityatra shakarasya lashakpatadhyate ityanena itsamya, nakarasya halantyam ityanena, ya iti shruyate. So shyan is the vikarana for the fourth gana. You have nrut, nrutyati, div, divyati, kupu, kupyati, yudh, yudhyati. So, ya is the Vikarana Pratyaya for the fourth Gana. So, here, anena sutrena vikalpena shyan vidhiyate. So, keshanchana dhatunam. So, if you look at here, these are the dhatus. Those which are in green color, they are the dhatus of the Vadigana. Vadiganasya dhatavaha. Tebhyaha vikalpena shyan vidhiyate. Shyanaha abhave autsargikaha shap. Okay. So these five dhatus are in the bhadigana. They should have got only shap. Anena sutrena vikalpena shyan api vidhiyate. Ataha rupa dvayam siddhyati. Shyanaha ekam rupam, shapaha ekam rupam. So among the rest, there are three dhatus which are in the divadi. Bhramu, kramu, bhramu, klamu and trasu. Okay. So for these वस्तुतः दिवादिगणस्य धातवः श्यन् विकरणः स्यात् वै दिवादिभ्यश्यन् दे शुड हैव कंपल्सरीली गॉट श्यन् सो दिस सूत्र मेक्स श्यन् ऑप्शनल सो इन द एब्सेंस ऑफ श्यन् दे गेट शप् शनः अभावे शप् प्रत्ययः भवति त्रुट धातुः तुदादिगणस्य धातुः सो देयर देयर इज दिवादि बाय दिस सूत्र इट गेट श्यन् इन द एब्सेंस ऑफ श्यन् तुदादिभ्यश्यः इत्यनेन श विकरणः भवति ओके सो दीज आर the dhatus which are in this so we will now concentrate on the vadigana tu bhrashr deeptau iti dhatu asti bhrash iti dhatu tasya shyan pratyaye krute bhrashya bhrashyati shapi krute bhrash a bhrashati so it gets two forms one with shyan and other with shap there is no angakarya okay angakaryam tu nasti kevalam vikaranah bhidyate श्यनी भ्राष्यति इति रूपं शपि भ्राषति इति रूपम् अग्रिमः टु भ्राश्र दीप्तौ इति भ्लाश इति धातुः वन्स् यु रिमूव् आदिर्ण्यटुडवः एण्ड् उपदेशयजनुनासिक इति तत्रापि श्यनी भ्लाष्यति इति रूपं शपि भ्लाषति इति रूपम् भ्रमु धातुः सो इट् इस् इन् बोत् द गणास् भ्वादौ भ्रमु चलने इति धातुः अस्ति दिवादौ भ्रमु अनवस्थाने इति धातुः अस्ति तत्र भ्वादिगणस्य धातुः भ्रम श्यनि कृते भ्रम्यति इति रूपम् शपि कृते भ्रमति इति रूपम् यस् सारी भ्राश्र एंड भ्राश्र आर आत्मनेपदी धातु इट शुड बी भ्राश्यते और भ्लाश्यते ओके यस दे आर आत्मनेपदी सो भ्रम धातु भादौ यः भ्रम धातु तस्य भ्रम्यति भ्रमति इति रूपम सो इन दिवादी देयर इज अ भ्रम धातु इट गेट्स अ दीर्घ व्हेन फॉलोड बाय श्यन Okay. So there is Bhramyati and Bhramati. So we will see that later in the Divadigana. Kramu Padavikshepe iti dhatuhu. So asya vishaye ekam vishishtam sutram purvameva patitam. Kramah parasmai padeshu ityanena dirghaha. Iti. Atratu shyan vikaranaha vikalpena vidhiyate. Shyani kramyati iti rupam. So kramu ti shyan pratyaye kramu ya ti. अत्रापि क्रमः परस्मै पदेषु इत्यनेन दीर्घः भवति परस्मै पद पदे शिति सो क्रम गेट्स दीर्घ वेन फॉलोड बाय ए शित प्रत्यय इन परस्मै पद वेन इन टर्न फॉलोड बाय परस्मै पद सो श्यनि परे अपि क्रमः परस्मै पदेषु इत्यनेन दीर्घः शपि परे अपि दीर्घः अतः श्यनि क्राम्यति इति रूपं शपि तु क्रामति इति रूपं इट गेट्स क्राम्यति एंड क्रामति And then lasha kantau iti dhatuhu tasya shyani shapi shyani lashyati shapi lashati so there is no angakarya for this so there is either lashyati or lashati so these five are the dhatus belonging to the vadigana which get an optional shyan in addition to the shap bharasha bhlasha bhramu kramu lashaha The rest belong to a different gana. Any questions here? सो इदं प्रथमं सूत्रं वा भ्राश भ्लाश भ्रमु क्रमु क्लमु त्रसि त्रुटि लशः इति सो इज अ क्वेश्चन व्हाट आर द इंग्लिश मीनिंग्स ऑफ दीस धातुस व्हेन सम ऑफ देम आर वेरी ऑब्वियस दीप्तौ मीन्स टू लाइट और टू to shine so on chalane is to wander bhramyati or bhramati is to wander Kramati is to just move, take steps one after the other. Klamuglanav is to be sad or depressed. Udvega is anxiety. Chedana is to cut. Kanti is again luster. This. So, as I said, the meanings of the dhatus, it is all very indicative. Dhatu paathe yaha arthaha nirdishyate saha upalakshana matraha. Always remember that the artha of any dhatu is not final and it is not a fixed thing. Okay, the meaning of dhatus is a very, very wide thing. The exact meaning depends only on the context. And upasargas cause a lot of subtle changes. Even without it, the meaning in which a dhatu is used will change depending on the context. So, yaha arthaha asti satu kevalam upalakshanataya kashchan arthaha. So, if you check in any dictionary, you should find the general meanings or the range of meanings. If you look at, say, Apte or Monier Williams, you will know the range of meanings in which the dhatu is used. Agrimam sutram asti, shruva shrucha. So, shruvaha chekachanam, shril cha iti paratrayam, shnuhu iti anuvartate. So, sutra paathe pashyamaschet, svadibhyaha shnuhu, shruvaha shril cha asti. Dhatoho atyadhikaraha, pratyayaha paraha adyadattaha. So, there are two things which are given by this sutra. Anena sutrena karya dvayam vidhiyate. Ekam tu shru dhatoho paraha adyadattaha shnu pratyayaha syat. Dhatoho shnu vikaranaha vidhiyate. Shapaha apavadatvena shru dhatoho shnu iti vikaranaha vidhiyate. Aparancha shru dhatoho shru iti adeshah syat kartrarthe sarvadhatuke pare. So there is an adesha called shru. Please remember, this is one thing which most of the people are confused, and I've seen a lot of people who make a mistake in shrinoti. There is shru and there is shru. That is totally different. In shru, there are three letters. Shakarahasti, rephahasti, ukarahasti. Shru ityatratu. Shakarahasti, rikarahasti. There is no repha, there is only rikara. There is shakara and rikara. Whereas in shru, there is shakara, repha and ukara. Okay. So, shru dhatohu ubhayatapi rupani bhavanti. And most people make a mistake in writing it. There is also the confusion because, in writing this shru, shru ityasya lekhanavasare, bahutra anyathapi lekhanam sambhavati. You can just write it like you are writing this shru with just sha and then give the rikara mark. So actually the font which I use gives that. I have used a different font only for shru just to bring out the difference. Okay? It is written in both ways. Whichever way it is written, the letters there are only two. Shakaraha, rikaraha. Shrinoti ityatra sayeva. Shakaraha, rikaraha. Kintu shrutam ityatratu shakaraha rephaha ukaraha. So you have to take care both in writing and in pronouncing the forms of this dhatu. A very popular dhatu. Sarvatra upayujyate tathapi bahutra lekhane ucharane cha doshaha kriyate asmabhihi. Kimuchyate anena shru dhatoho kartrarthe sarvadhatu ke pare shnu pratyaha syat. So, shru dhatuhu bhadigane asti, kintu shapam badhitva anena shnu iti vikaranaha vidhiyate. Tathaiva dhatuhu sthane, shru ityasya sthane, shru iti adeshaha vidhiyate. Shru shravane iti dhatuhu. So, shru ti. So, dhatuhu sthane, shru iti adeshaha. Vikaranaha shnu. Shnu ityatra shakarasya. Lashakvatadhite ityanena itsamya lope nu iti bhavati. So this is the normal vikarana for the fifth gana. Panchama ganasya dhatu nam shnu vikaranaha autsargekaha. Sunoti ityadi nam dunoti ityadi nam. Atrapi sahayeva vikaranaha dhatoho sthane adeshaha. So both these are given by the same sutra. Shnu vikaranaha dhatoho sthane adeshaha. Shru nu. So, the forms of the dhatu आर श्रुणोति श्रुणुतः श्रुण्वन्ति सो वन्स यू एड अ डिफरेंट विकरण द फॉर्म्स आर कंप्लीटली लाइक द फॉर्म्स ऑफ द फिफ्थ गण पंचम गणस्य धातूनां सुनोति सुनुतः सुन्वन्ति चिनोति चिनुतः चिन्वन्ति इत्यादीनां धातूनां यानि रूपाणि तथैव रूपाणि भवन्ति श्रुणोति श्रुणुतः श्रुण्वन्ति इत्यस्य सो फॉर दिस धातु वी आर नॉट स्टडीइंग द रूपसिद्धि नौ इदानीम् अस्य रूपाणि न अधीयन्ते जस्ट रिमेम्बर दट इट गेट्स अ डिफरेंट विकरण अस्मिन् विकरणे कृते कथं रूपाणि भवन्ति इति वी विल स्टडी वेन वी स्टडी द स्वादिगण स्वादिगणस्य अध्ययन समये अस्य रूपाणि अधीयन्ते So there is one more question which somebody asked earlier also. Why is Shru Dhatu in the Vadigana? This is not an optional Vikarana. Vaikalpikaha Vikarana Pratyaha Na. It is a compulsory Vikarana. So, Sarvadhatu Kalakareshu Sarvani Rupani Diva Swadiganasya Iva Bhavanti. So, it resembles the Swadigana Dhatus completely. So, why is this Dhatu in the Vadigana? So, somebody asked me. I don't have an answer as of now. I have asked some of my teachers and etavatatu kim prayojanam syat iti na jnayate. So it is if there is anything I'll let you know. But the forms sarvadhatu karakareshu rupani tu swadiganasya rupani iva bhavanti shru dhatuhu. Shruvashrucha ityanena shnu vikaranaha dhatuhu shru adeshaha. So that is why wherever we are having the sarvadhatuka lakara forms, it is always shru, okay? Shrunoti, ashrunot, shrunotu, etc. Ardhadhatuka pratyayeshutu, shrutam, shruyate, ityadini rupani, shroshyati, shrota, ityadini rupani. Okay? So there is a difference in how we write. कश्चन प्रश्नः सूत्रे चकारः किमर्थः तदेव कार्यद्वयं विधीयते अत्र पूर्वतनसूत्रेण श्नु विकरणः विकरणेन सह धातोः श्र आदेशः सो श्रुवः श्नुः श्र च सो देयर इज बोथ सो श्नु विकरणः भवति श्र इति आदेशश्च भवति समुच्चयार्थः चकारः Okay. Agrimam sutram asti akshonya tarasyam akshah anya tarasyam iti padadvayam shnuhu iti anuvartate kartari sarvadhatite you can see it's the same series swadibhya shnuhu shruvashrita akshonya tarasyam tanukarane takshah they are all in the series So, akshonyatarasyam ityatra shnuhu iti anuvartate. Kartari sarvadhatuke ityapi. Adhikaraha as usual. So, akshadhatoho paraha adhyadattaha shnu pratyaha vasyat anyatarasyam ityasya vikalpaha ityarthaha. So, there is an optional shnu pratyaya for the akshadhatu kartarthe sarvadhatuke pare. Akshu vyaktau iti dhatuhu. So this is a dhatu of the Vadigana. Here it is an optional shnu pratyaya. So shnu pratyaya krate akshu nu ti. Akshnoti akshnutaha akshnuvanti ityadi ni rupani. Shaknoti shaknutaha shaknuvanti ityadi ritya. So these forms, the forms with shnu vikarana resemble those of the fifth gana and will be studied in the fifth gana. So I am वैकल्पिकः विकरणः अतः तदभावेष्वपि अक्ष अति अक्षति अक्षतः अक्षन्ति इत्यादीनि अपि रूपाणि सन्ति सो बोथ काइंड्स ऑफ फॉर्म्स आर पॉसिबल ओके सिंस दिस इज एन ऑप्शनल विकरण प्रत्यय अक्षनोति अक्षति इति रूपद्वयम् अक्षति इत्यत्र अंगकार्यं किमपि नास्ति सो इट इज जस्ट अक्ष अति अक्षति अक्षतः अक्षन्ति इत्यादि सो श्नु प्रत्यये तु विशिष्टानि अंगकार्याणि सन्ति स्वादिगणे पठामः एक्सक्यूज मी जस्ट फॉर अ मोमेंट ओके सो अक्षोण्यतरस्याम इत्यनेन विकल्पेन श्नु विकरणः विधीयते अक्षधातोः अक्षणोति अक्षति इति रूपद्वयम् अग्रिमं सूत्रमस्ति तनूकरणे तक्षः तनूकरणे इति सप्तम्येकवचनं तक्षः इति पञ्चम्येकवचनं श्नुः इति अनुवर्तते कर्तरि सार्वधातुके तनूकरणार्थे विद्यमाना तक्षधातोः सो तनूकरण इज द मीनिंग सो तनूकरण इज टू मेक समथिंग स्मॉलर यू स्क्रेप ऑफ और यू पील ऑफ एंड यू मेक समथिंग स्मॉलर सो दैट इज कॉल्ड तनूकरण इट्स लाइक यू रेज वुड एंड मेक इट स्मॉलर सो दैट इज द मीनिंग इन विच इट इज यूजुअली यूज्ड सो तस्मिन् अर्थे विद्यमानात् तक्षधातोः परः आद्युदात्तः श्नु प्रत्ययः वा स्यात् सो देयर इज एन ऑप्शनल श्नु प्रत्यय कर्त्वर्थे सार्वधातुके परे तक्षु तनूकरणे इति धातु सो देयर इज वन मोर तक्ष धातु तक्ष त्वचने ओके विच मीन्स टू कवर और टू पील ओके सो सह धातुः तस्य धातोः श्नु प्रत्ययः न भवति द सेम धातु माइट बी यूज्ड इन डिफरेंट मीनिंग्स आल्सो अतः अन्येषु अर्थेषु अस्य श्नु विकरणः नास्ति तनूकरणार्थे तु श्नु प्रत्ययः विकल्पेन विधीयते तक्ष नु ति तक्ष्णोति तक्ष्णुतः तक्ष्णुमन्ति इत्यादीनि रूपाणि तदभावे कर्तरि शप् इत्यनेन शप् तक्ष अ ति तक्षति सो देयर इज तक्ष्णोति एंड तक्षति रूपद्वयम् वेरी सिमिलर टू अक्ष्णोति एंड अक्षति So takshaka is one of the words for the carpenter because he works with wood. Derived from this dhatu. Okay, so the next sutra for Vishishta Vikarana is Dhinvi Krinmyor Atha. Dhinvi Krinmyohu Yatishashti Dvivachanam A Cha. So Yatha Shruvashricha Atrapi Karyadvayam Vidhiyate. पूर्वतन सूत्राद् उहु इति अनुवर्तते सो यू कैन सी हियर तनादिकृभ्य उहु धिन्विकृण्व्यो रथ सो तनादिगणस्य धातोः उ विकरणः विधीयते तदेव अनुवर्तते धिन्विकृण्व्योः फॉर द धातुस् धिन्वि एंड कृण्वि उ प्रत्ययः भवति अभ्याम धातुभ्याम परः आद्युदात्तः उ प्रत्ययः स्यात् धात्वोः च अकारः आदेशः स्यात् सो अकार इज आल्सो एन आदेश फॉर द धातु सो इट इज नॉट द सर्वादेश श्रुवश्रुत इत्यनेन अनेकाल्त्वात् सर्वादेशः द एंटायर धातु इज रिप्लेस्ड बाय श्रु अत्र तु अलोन्त्यस्य इत्यनेन अन्त्यस्य वर्णस्य स्थाने अकारादेशः विधीयते कर्त्रर्थे सार्वधातुके परे धिवि प्रीणने इति धातुः उपदेशे अजनुनासिक इति तस्य लोपः धिव् इदितो नुम् धातोः इत्यनेन नुमागमः धिन् व् सो दिस् इस् नाट् झल् अनुस्वारः न भवति सो इट्स् जस्ट् नुमागम धिन्व् सो दिस् इस् वाट् इस् गिवन् एस् द धिन्वि धिन्वि कृण्वि सो द धातु धिन्वि इस् आफ्टर् डूयिङ्ग् द नुमागम सो धिन्व् धातोः लट् लकारः लकारस्य स्थाने तिबादेशः सो धिन्व् ति इदानीं विकरणः अस्ति उ धिन्वि कृण्व्योरच इत्यनेन उ विकरणः धातोः वकारस्य स्थाने सो द लास्ट् लेटर् इस् वकार इन्स्टेड् आफ् वकार वि हेव् अकार सो इट् बिकम्स् धिन उ ति सो वकारस्य स्थाने अकारादेशः तस्य अकारस्य अतो लोपः इत्यनेन लोपः Okay. So there is lopa of the akara. It becomes dhin u ti. The forms are like karoti kurutaha kurvanti or tanoti tanutaha tanvanti of the tanadigana. So the forms will be dhin u ti. So there is dhinu. It gets guna by sarvadhatuka adhadhatuka yoho. It becomes dhinoti. So the angakarya again is like that of the tanadigana. तनादिगणे यथा धातूनां रूपाणि तथा रूपाणि भवन्ति. So we are not studying the forms of the different ganas now, okay, because it will just simply confuse the matters. So when we study the forms of that gana, this will also automatically follow the same pattern. There is nothing else special about this. It's just the change of vikarana. So the change of vikarana completely changes the forms in any sarvadhatuka lakara. So dhivi. So evameva krivi. So we used a new sutra here, atolopaha. So I'll just atolopaha iti sutram, ataha lopaha iti padadvayam, ataha iti shashti, lopaha iti prathama, ardhadhatuke iti adhikaraha, asiddhavaratrabhat, angasya. Okay. So ataha angasya, yena vidhistadantasya, akarantasya angasya, ardhadhatuke pare, lopaha syat. So this is the simple meaning of the sutra. There is something more related to the sutra, which we'll see sometime else. So samanyataha akarantasya angasya ardhadhatuke pare lopaha. Okay. So if the anga is akaranta followed by an ardhadhatuka, there is lopa. Okay. So atra u pratyayaha. You can see dhina u angam adantam ukaraha ardhadhatuka pratyayaha. This is the only vikarana which is ardhadhatuka. Right, because it is neither shit nor ting. So arthadhatuke pare akarasya lopaha, so it becomes dhinoti. Similarly, krunoti, it is the same thing. Krivi iti dhatuhu, so tasya evameva, the same thing, you will get the numagama krunmu iti. The only thing special there is the natva by Pravarnanasya natvam vachyam ityanena natvam bhavati krinoti ityadini rupani. So the forms of both these dhatus we will study in this trasti. Evam krimi himsa karanayoshcha iti dhatuhu. So upadeshe adhanunasika iti ityanena ikarasya itchamya lopaha krivu. Iditonum dhatuhu iti numagamaha krinvu. This lat tibadeshaha. Dhinvikranmyo rachayatyanena vakarasya akaradeshaha u vikaranaha atolopaha ityanena akarasya lopaha krinu u ti sarvadhatuka ardhadhatuka yoho iti gune krinoti rivarnan nasya natvam vachyam atta rukara hasti rukarat parasya nakarasya natvam bhavati krinoti iti lupam dhinoti krinoti. So the forms are like that of tanadigana. So, any questions? There are five sutras which give a Vishishta Vikarana for dhatus in the Bhadigana. Va, Bhrasha, Bhlasha, Bhramu, Kramu, Klamu, Trasi, Truti, Lashaha. Ityanena, Panchanam dhatunam, Vikalpena, Shyan, Pratyaha Vidhiyate. Shruvashrita, Ityanena, Shrudhatoho, Nityam, Shnu, Vikaranaha. धातोः श्र इति आदेशस्य विधीयते. अक्षोण्यतरस्याम् तनूकरणे तक्षः इति सूत्रद्वयेन अक्ष तक्ष एतयोः धातोः विकल्पेन श्नु विकरणः विधीयते. धिन्विकृण्योरच इत्यनेन धिवि कृवि एतयोः धातोः उ विकरणः धातोश्च अकारः अन्तादेशः विधीयते. सो फैव् सूत्रस् which give a special specific vikarana for the dhatu. So vikarane krate sarvadhatu kesho rupani tu sarvatha bhidyante. Any questions?
Somebody just had a question, just a thought. Instead of whom and then having another adesha, because atolopa always deletes that R, right?
Yeah.
So, if you had made a oom or something, then Tilopa would have done that.
So if we had made a, sorry,
instead of oom, something like a nitva.
No, no, oom is a vikarana, no. There is a difference between an adesha and a vikarana. It has to be a pratyaya.
No, in that sutra,
yeah.
That's the oom adesha and also gives a a.
Yeah, as I said, if the U is not made a pratyaya, the further things will not happen. यदि उकारः प्रत्ययत्वेन न दीयते से फॉर एग्जांपल देयर इज लोपश्चास्य अन्यतरस्यां वोः देयर इज विच गिव्स अन प्रत्यय उकार ओनली इफ द उकार इज अ प्रत्यय दोस कार्य कैन हैपन इफ इट इज डायरेक्टली एन अंतादेश फॉर द धातु यू कैन नॉट हैव दोस कार्य If it has to be a pratyaya. U is
no,
a pratyaya.
I am not disagreeing with the pratyaya, but the sutra which gives Krindi that this thing, it says, and is also giving an akara adesha.
How else can you do it? What else could have been? Oh. As I said, you cannot change the u because it is a vikarana and it is from the anuratti. You cannot change it. One thing which he might have done, which I thought just now, is he could have directly deleted the end. Then
that's
it is mere right. Lopaha.
Anta, anta desha, anta,
the lopa. Instead of doing
lopa
it,
can be done.
But that, I mean, probably he did that because it is laghava. Because lopa is, it requires more this. And yeah, why he does that is this. Yeah, because of sthanivad bhava. We do the ato lopaha. See, krinu uti. Okay, why don't we apply Puganta Laghupadhasya cha now? Kimartham Puganta Laghupadhasya cha iti na bhavati. Akarasya sthanivad bhavat na bhavati.
Okay.
The sthanivad bhava is because of atah parasmin purva vidhau. It can happen only if it is an ajadesha. Only if it is a lopa for the akara. If he directly deletes the vakara, you cannot have sthanivad bhava. Because it is not ajadesha. If there is no sthan...
You can always do the lopa using one of those three lopa pratyayas.
That does not matter. There is no sthanivad bhava, no. You cannot bring in that by sthanivad bhava, whether you do lopa or look.
Look, okay.
It doesn't matter. I mean, you cannot bring it by sthanivad bhava. You need sthanivad bhava to operate here.
So that the kri does not get the...
guna. There is no guna. There is no guna because of the sthanivad bhava. So for sthanivad bhava, it has to be an asaha lopaha, ajadeshaha, paranimittaha, ajadeshaha, sthanivad syat. So that is why he converts it into an akara and then deletes it.
Thanks.
Yeah. Okay, takasana prashna hasti. Ato lopaha ityasya praptehe purvam katham akarasya agamaha. As I said, the sutra itself gives dinni krinvyoho ach. The sutra itself gives an akara as the adesha for the anta. Antyasya vakarasya sthane akara adesha. Uprateha. Ubhayam api tenaiva sutrena vidhiyate. Both the karyas are given by the sutra itself. The sutra says that you add the uvikarana and also there is an akara adesha. Sharma Mohane. उपधायां च इति न भवति किल तत्तु रेफवन्तौ उपधायां यस्य धातोः द रेफ और वकार शुड बी इन द उपधा नॉट एट द एंड
थैंक यू
उपधातोः उपधाभूतौ यौ रेफवकारौ तयोः उपधाभूतस्य इकः यथा कुर्द धातोः उपधायां रेफः ततः पूर्वं विद्यमानस्य एकः दीर्घः साक्षात् रेफान्तस्य वकारान्तस्य वा न भवति उपधायां च इत्यनेन दीर्घः एनि अदर् क्वेश्चन्स् So we have covered the second kind of Vishishta Karya, which is the Vishishta Vikarana. The first was Adesha, Agama or Lopa. The second was the Vishishta Vikarana. So there are five sutras for special Vikarana. Va, Bhrasha, Bhrasha, Bhramu, Kramu, Klamu, Trasi, Truti, Lashaha, Shruvashricha, Akshonyatarasyam, Tanukarane, Takshaha, Dhinvikrinvyo, Ratha. So the first sutra gives five dhatus. After that, it is all one. Shruvashrucha is one. Akshonyatarasyam Tanukarane Takshaha is all one. Dhinvikrinvyo Racha is two. So, to a total of 10 dhatus in the Vadigana have a special Vikarana. Okay. So, the next karya, as I said, are special pratyayas which are added to the dhatu itself. So those we will see in the next class. ఏనాక్షర సమాంనాయమధిగమ్య మహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వర రుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. సో దేర్ ఇస్ ఎ క్వశ్చన్ హియర్, హౌ డస్ ఖుర్ద్ బికమ్ ఖుర్ద్? It does not. I mean, there are two different dhatus. There is kurd and there is also khurd. Both are there. So, it will be either kurdate or khurdate. Both forms are there. With the kakara and also a khakara. సో ధన్యవాదాః సర్వేభ్యః మకర సంక్రమణస్య శుభాశయాః. దేర్స్ వన్ మోర్ క్వశ్చన్. బట్ అకార్డింగ్ టు యువర్ మెయిల్ ద క్లాసెస్ ఆర్ సపోజ్డ్ టు స్టార్ట్ అట్ 6, ఇస్ ఇట్ 7 AM? సర్టెన్లీ నాట్. Classes are always from 5:30 to 7. I mean, the class timings are always 5:30 a.m. to 7 a.m. IST. అస్తు ధన్యవాదాలు.